अद्य सिद्धान्तकौमुद्यां तत्पुरुषसमासप्रकरणे एकादशः पाठः
येनाक्षरतमां लायम् अधिगम्यमहेश्वरात् प्रथमं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुत्तीर्भान्त्य च अय्याकरणसिद्धान्तकौमुदीयं विरच्यते। तत्पुरुषसमासप्रकरणे अंतिम समास प्रभेदे स्मः। उपपद समास इज द लास्ट काइंड ऑफ तत्पुरुष समास। एज यू सीन देयर आर मेनी सब टाइप्स इन तत्पुरुष। स्टार्टिंग विद द डिफरेंट द्वितीय तृतीय एक्सेट्रा एंड देन वी हैड एकादेशी समास कर्मधारय द्विगु कूगति प्रादीनै एंड फाइनली उपपद समास। उपपद समास उपपदम अतीन इति सूत्रेण लीयते। अतिङ् उपपदं समर्थेन अतिङन्तेन सह समस्यते। किं नाम उपपदम् इति प्रश्ने तत्रोपपदं सप्तमीस्थम् इति उपपदसंज्ञाविधायकं सूत्रम्। धात्वधिकारे पठितमिदम्। सो दिस् सूत्र इस् एक्चुअली सीन् इन् द कृदन्त जस्ट् बिफोर् पाणिनि स्टार्ट्स् द कृत् प्रत्यय। कृत्प्रत्ययानाम् आरम्भे कृत्प्रत्ययप्रकरणस्य आरम्भे तत्रोपपदं सप्तमीस्थम् इति दत्तं। तत्र नाम तेषु सूत्रेषु कृत्प्रत्ययाः विधीयन्ते तेषु सूत्रेषु सप्तमीस्थं सप्तमी विभक्तौ यत्पदमस्ति तत् उपपदं भवति। उदाहरणार्थं कर्मण्यण् इति दीयते। कर्मणि अण् प्रत्ययः भवति अर्थात् यदा किञ्चित् कर्मपदम् अस्ति। सो वेन् असोसियेटेड् वित् अ पर्टिक्युलर् कर्मपद there is the dhatu gets an at pratyaya. udaharanartham kumbham karoti ityasti kumbham karma. For the dhatu kr kumbha is the karma. So when that karma pada is specified the dhatu kr gets an pratyaya. This is what it means. So in that case the karma pada whichever is the karma pada will get upapada samya. tatra saptami istham saptami vibhakto sutre कृत्प्रत्ययविधायकसूत्रे सप्तमी विभक्तौ यत् पदमस्ति अर्थात् कर्मणि इति सप्तम्यामस्ति। सो वटेवर् इस् गिवन् वटेवर् इस् इण्टेण्डेड् बै दट् सप्तमी मीन् बै दट् पद दिस् इस् कर्मणि इत्यनेन किं ज्ञायते कुम्भ इति पदम्। इट् मैट् बि कुम्भ आर् इट् मैट् बि वटेवर् इट् डस् नाट् मेटर् वाट् इट् इस्। सो यत्किमपि भवतु यदस्ति तत् उपपदसंज्ञं भवति। सो विन् यु हाव् कर्मणि अण्ड् द कर्मपद विल् गेट् उपपदसंज्ञा। सिमिलर्लि इफ् यु हाव् से देर् आर् मेनि सुपिस्थः सो सुबन्त वेनेवर् सुबन्त इस् एन् उपपद स्था धातु गेट्स् कप् प्रत्यय सो दट् सुबन्त विल् बि काल्ड् उपपद। सो दिस् उपपद विल् कम्बैन् वित् दट् कृदन्त। सो उपपदं सो देर् इस् अ कृदन्त krit pratyaya being added to a dhatu and that is upapada. So this upapada combines with that kridanta to form an upapada samasa. So kumbham karoti, we have kumbha as upapada. Kumbham iti karmani upapade kridhatu ho an pratyaya bhavati. An pratyaya krite kara iti rupam. Kumbha kara iti kumbha ngas kara iti upapada samasa. Upapada mating iti sutrena upapada samasa ha kumbha kara ha iti rupam. Any questions? Was there any doubt regarding upapada samasa? So now continuing with upapada samasas. Sorry. अमैवाव्ययेन इति सूत्रमस्ति। अमा एव अव्ययेन अमैव तुल्यविधानं यदुपपदं तदेव अव्ययेन सह समस्यते। So this again deals with Upapada Samasa. If an Upapada Samasa is happening with an Avyaya, there are some cases where after adding the Krut Pratyaya, it becomes an Avyaya. Say for example, Krutva, iti Krutantavyayam. So, Avyayena Saha Yadi Upapada Samasaha, Tarhi Kashchana Niyamaha Asti. Kaha Niyamaha? Ama Eva Tulya Vidhanam Yad Upapadam. Tadeva Avyayena Saha Samasyate. Or Saha, Am Pratyaya Matra Vidhayaka Shastrena. Ama Ittikta Am Iti Pratyaya. It is, Am is Namul. There is a Krut Pratyaya called Namul. In Namul, the Nakara gets its Samya, the Lakara gets its Samya, Ukara gets its Samya. So what is finally left is Am. So Sayeva Am Pratyaya. So there are sutras which give this Am Pratyaya. And there are sutras which give both this Pratyaya and some other Pratyaya. Okay, so there are two kinds of sutra. Kaishchit Sutra hi Kevalam Am Pratyaya Vidhiyate Upapade. Kasmilchit Upapade Am अर्थात नमूल प्रत्यय भवति इत्येव उच्यते कैश्चित् सूत्रे किम् उच्यते कस्मिंश्चित् उपपदे अम् प्रत्ययः भवति अन्यः अपि कश्चन प्रत्ययः भवति इति उच्यते तत्र अम् प्रत्यय मात्र विधायक शास्त्रेण यस्मिन् सूत्रे केवलम् अम् प्रत्ययः विधीयते तत्र उपपदसमये अपि भवेत् अस्मिन् उपपदे पदे परे अस्मिन् उपपदे सति अम् अर्थात् नमूल प्रत्ययः भवति इत्येव येन सूत्रेण उच्यते तदुपपदम् अव्ययेन तेन अव्ययेन समस्यते सो द उपपद समासः विल हैपन ओनली इन केसेस वेयर देयर इज प्योरली द नमूल प्रत्यय बीइंग गिवन एंड नॉट एनी अदर प्रत्यय उदाहरणं पश्यामश्चेत् ज्ञायते स्वादुङ्कारम् इति उदाहरणं स्वादुं कृत्वा इत्यर्थे ओदनं भुङ्क्ते स्वादुं कृत्वा इत्यस्य सो giving the expression swadu means very tasty okay there is only Sharada who is not able to hear are the others able to hear So coming back, swadu karam. Swadu is to swadu means that which is very tasty. So swadu krutva, so giving an expression of or saying that it is very tasty. Swadu karam bhunkte ityasya. So he eats with appreciation. Ityartha. Swadu krutva odanam bhunkte ityartha. Idani vatra katham swadu ityasti. Swadu me namul iti sutrena. Swadu iti ityetasmin upapade. Kru dhatoh namul pratyah vihita. So, and after you add the namul, krunme dantahayati sutrena namul pratyayantasya avyayatam bhavati. So, this karam is an avyaya, krudanta avyaya. And you have this swadum as the upapada. Now, this is an avyaya and the namul pratyaya is given only, there is only namul pratyaya being given by the sutra. अनेन सूत्रेण केवलं नमूल प्रत्ययः एव विधीयते अन्यः कोऽपि प्रत्ययः न विधीयते अतः इदम् अमातुल्यविधानम् इदम् उपपदं स्वादु इति उपपदम् अमातुल्यविधानम् द उपपदसंज्ञा इस् बीङ्ग् गिवन् ओन्ली वित् अम् प्रत्यय सो उपपदसंज्ञा इस् आल्वेस् सप्तमीस्थं स्वादुमि इति सप्तमी विभक्तौ अस्ति सो दिस् उपपद इस् अमातुल्यविधानम् सो बीङ्ग् गिवन् द उपपदसंज्ञा इस् बीङ्ग् अटेन्ड् in association with the am pratyaya that is the namul pratyaya atayeva ama tulya vidhanam asti ityatah atra samasah bhavati swadunkaram iti samasah krutah now if there is a case where kala samaya velasu tumun ityasti tumun pratyah vidhiyate kale samaye velaya sa upapade so these three are the upapadas so eteshu upapadeshu sattu tumun pratyah vidhiyate kalah bhoktum samayah bhoktum vela bhoktum iti atra amatulya vidhanam nasti there is no am pratyaya even though bhoktum iti avyayam asti kintu amantam avyayam na it is not am right it is not am pratyaya therefore there is no samasa at all यदा अम् प्रत्ययः न केवलम् अमन्तेन अव्ययेन भवति समासः इत्यर्थः. सो अत्र अमन्तम् न, दिस् इस् नाट् नमुल् प्रत्यय, देर्फोर् देर् इस् नो समास. कालः भोक्तुम् इत्यत्र यद्यपि उपपदम् कालः इति उपपदम् अस्ति, तथापि उपपदसमासः न भवति. And there is one more case. Amaiva eti kim? Amaiva tulya vidhanam iti uchyate kim artham iti chet. Agre bhojam agre bhuktva iti udaharanam. Kim asti atra? Bhasha agre prathama purveshu iti sutram. Agre prathama purva iti eteshu upapadeshu. So you should always notice, whenever we are talking about upapada, you should notice the saptami vibhakti. Agre prathama purveshu iti saptamyam asti. Therefore the word agre or prathama or purva will be upapada. So when these three are the upapadas, vibhasha vikalpena namul pratyaha bhavati iti upta tva namulau. So when namul is optional, there is also tva. So two pratyayas are being given by this sutra. One is tva and the other is namul. Now this is not amaiva tulya vidhanam. This is not, the upapada samya is not being given only in association with namul. There is also one more pratyaya called tva. Ataha अमास अन्येन च तुल्य विधानम्. उपपद संज्ञा अमासः अपि उपपद संज्ञा भवति, एवम् अन्येन त्वा प्रत्ययेन अपि उपपद संज्ञा भवति. सो देयरफॉर इन दिस केस अग्रे भोजम इत्यत्र समासः न भवति. सो दिस इज एन अव्यय एंड दिस इज एन अमन्त नमुलन्त अव्यय, तथापि समासः न भवति. किमर्थम्? अमैव तुल्य विधानम् नास्ति इत्यतः. अग्रिमं सूत्रमस्ति तृतीया प्रभृतीनि अन्यतरस्याम् उपदंशतृतीयायाम् इत्यादीनि उपपदानि अमन्तेन अव्ययेन सह वा समस्यन्ते. दिस् इस् अ कण्टिन्युएशन् आफ् द प्रीवियस् केस्. अमन्तेन अव्ययेन सह समासः अत्र नमुल् प्रत्ययविधायकेषु सूत्रेषु बहूनि सूत्राणि सन्ति. देर् आर् मेनी सूत्रास् विच् गिव् नमुल्. तत्र उपदंशस्तृतीयायाम् इत्यादीनि उपपदानि, स्टार्टिङ्ग् फ्रोम् दिस् सूत्र उपदंशस्तृतीयायाम् इति तृतीयाध्यायस्य चतुर्थपादे सप्तचत्वारिंशत्तमं सूत्रम्. अस्मात् सूत्रादारभ्य अन्वच्यान्युरोम्ये इति सूत्रपर्यन्तम् अस्मिन्नेव पादे चतुष्षष्टितमं सूत्रं, तत्सूत्रपर्यन्तं यानि उपपदानि. सो इन् दीस् सूत्रास् वट् एवर् इस् द वर्ड्स् विच् गेट् उपपदसंज्ञा, तेषाम् अमन्तेन अव्ययेन सह विकल्पेन समासः भवति. पूर्वसूत्रेण नित्यं समासः, अमैवाव्ययेन इत्यनेन नित्यं समासः, बिकास् आल् दि समासस् कुसमासः, गतिसमासः, प्रादिसमासः, एवम् उपपदसमासः, सर्वेपि नित्यसमासाः. नित्यं क्रीडादिकयोः इत्यतः नित्यम् इति अनुवर्तते. सो देर् इस् अ कम्पल्सरी समास, वेर् इन् दिस् केस् समास इस् आप्शनल्. मूलकेन उपदंशं भुङ्क्ते, मूलकोपदंशम् इत्यस्ति. मूलकेन उपदंशम् इति उप इति पूर्वकस्य दशधातोः उपदंशस्तृतीयायाम् इति सूत्रेण नमुल् प्रत्ययः विधीयते. सो द वर्ड् उपदंश गेट्स् नमुल्, सो इट् बिकम्स् उपदंशम्. सो एण्ड् मूलक इस् द उपपद, मूलकेन उपदंशम् इत्यस्ति. सो हेविङ्ग् दिस् मूलक इस् राडिश् एस् द उपदंश एस् द सैड् डिश् इत्यर्थे प्रयोगः. नौ इन् दिस् केस् by the purva sutra, that is by amaiva avyayena, the samasa would have been compulsory because this is amaiva tulya vidhanam. There is only namul which is being given by the sutra. Ataha purva sutrena nityam samase prapte anena vikalpyate mulakopadamsham ityapi mulakopadamsham bhunkte ityapi prayogah bhavitum arhati mulakena upadamsham iti vyastah api prayogah bhavitum arhati. Uchaihkaram iti udaharanam avyaye yathaapi prayadakhyane kriyaha त्वा नमुलौ इति सूत्रेण नमुल् प्रत्ययः विधीयते. सो कारम् इस् आल्सो नमुल् अन्त विच् इस् अमन्त, बट् द विधायकसूत्र इस् वन् विच् गिव्स् बोत् त्वा एण्ड् नमुल्. त्वा प्रत्ययः उच्चैः कृत्वा इत्यपि भवति, उच्चैः कारम् इत्यपि भवति. इदानीं पूर्वसूत्रेण अप्राप्ते वचनम् अमैव तुल्यविधानं नास्ति. दिस् इस् नाट् तुल्यविधान ओन्ली वित् अम्, देर् इस् आल्सो त्वा प्रत्यय. अतः पूर्वसूत्रेण समासः न प्राप्नोति. यु केन् नाट् डु अ समास बै द प्रीवियस् सूत्र. किन्तु अनेन सूत्रेण विकल्प्यते. सो देर् आर् टु केसेस्. वन् इन् उपदंश मूलकोपदंशं पूर्वसूत्रेण नित्यं समासे प्राप्ते अनेन विकल्प्यते. उच्चैकारम् इत्यत्र पूर्वसूत्रेण अप्राप्ते विकल्प्यते. सो दिस् इस् वन् कैण्ड् आफ् सत्यं यु काल् उभयविभाषा. This is a vibhasha. This is an optional sutta. We call it prapta vibhasha and aprapta vibhasha. Prapta vibhasha is where when you were compulsorily, when the karya was compulsorily happening from some sutra, the other sutra makes it optional. That is prapta vibhasha. Praptasya vikalpaha. Aprapta vibhasha, purva sutrena aprapte anena vikalpate. So that is aprapta vibhasha. There are certain optional sutras, vikalpa sutras, which are only prapta vibhasha. क्वचित् केवलम् अप्राप्तविभाषा भवति. अत्र तु उभयविभाषा, प्राप्तस्यापि विकल्पः अप्राप्तस्यापि विकल्पः. उच्चैः कारम् इत्यत्र समासेन किं प्रयोजनम्? उच्चैः इति अव्ययम्. समासे कृते वा अकृते वा रूपं तु समानं भवति. किमर्थं समासः इति चेत् स्वरे भेदः भवति. समासस्वरः भिन्नः, व्यस्तप्रयोगे स्वरः भिन्नः. तृतीया प्रभृतीनि अन्यतरस्या. In the sutras which come under this range, the samasa is optional. Kvaja sutra. Pratinya prabhutini upapadani kvantena saha va samasyante. So the previous sutra was only for for namulanta avyaya. Kvapratenta. त्वाप्रत्ययान्तेन सह अपि समासः भवति. तृतीया प्रभृति सो द सेम् सेट् आफ् सूत्र. इफ् देर् इस् त्वा प्रत्यय बीङ्ग् गिवन् तेन त्वान्तेन सह अपि समासः भवति. उच्चैः कृत्वा, उच्चैः कृत्य, तदेव सूत्रम्. अव्यये यथाभिप्रेताख्याने क्रियः त्वाणमुलौ. सो उच्चैः कारम् इत्यत्रापि समासः भवति. त्वान्तेन सह अपि उच्चैः कृत्वा, उच्चैः कृत्य इति अस्ति. समासे सति समासेन पूर्वे क्वो ल्यप इत्यनेन त्वा इत्यस्य ल्यवादेशः भवति. समासः यदि नास्ति तर्हि ल्यवादेशः अपि न भवति. सो हियर् आल्सो देयर् इस् एन् आप्शनल् समासः. कृत्य इति तदेव, कृत्वा इति क्वान्तं, क्त्वा प्रत्ययस्य ल्यवादेशः. सो वेनेवर् देयर् इस् अ समासः, क्त्वा इस् रिप्लेस्ड् बै ल्यप्. सो उच्चैः कृत्य इति समासः, उच्चैः कृत्वा इति व्यस्तः प्रयोगः. It is option. So, Tritiya Prabhutini iti kim. So, in both these sutras, Purva Sutra, Tritiya Prabhutini annyatrasya mityatra, Kvacha iti sutra, Tritiya Prabhutini iti uchyate. Arthatu, Upadamsha Tritiyayam iti sutra darabhya, Anvachananomya iti sutra paryantam. So, they are considered as Tritiya Prabhutini. So, these two samasas, or these two sutras apply for the sutras which come under that range. Upadamsha Tritiyayam iti sutradarabhya Anvachananomya iti sutra paryantam yani sutrani santi upapada vidhayakani tesham vishaye eva anayoho sutrayoho praptihi anyatra na bhavati. Udaharanam diyate alankrutva khalu krutva iti ktva svanta svantavyaye ime अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा इति सूत्रेण क्त्वा प्रत्ययः विधीयते. फोर् कलम् खलु. किन्तु इदं सूत्रं तत्र नास्ति. दिस् डस् नाट् बिलाङ्ग् टु दट् रेञ्ज् विच् इस् तृतीया प्रभृतिषु नान्तर्भवति. अतः अत्र क्त्वा प्रत्ययान्तेन सह समासः न भवति. देर् इस् नो समासः हियर्. इट् इस् ओन्लि व्यस्त प्रयोगः. Any questions? With this we complete Tatpurusha Samasas. That is Tatpurusha Samasa Vidhayakani Sarvani Sutrani Adhitani. All types and subtypes of Tatpurusha Samasa we have covered. अलङ्खल्वो प्रतिषेधयोः प्राचां क्त्वा इत्यनेन अलम् इत्यस्मिन् उपपदे खलु इत्यस्मिन् उपपदे क्त्वा प्रत्ययः विधीयते. सो यु हाव् अलं कृत्वा एण्ड् खलु कृत्वा. सो अलङ्कृत्य इति न भवति. सो इन् दिस् पर्टिक्युलर् केस् there is no samasa, means there is no nevadesha, it is no vyasta prayoga. They are excluded because this sutra, the sutra which is giving this tva pratyaya, does not belong to the trench. As we saw in the previous slide, tritiya prabhatini ityukte 3447, chata saptachatvarimshattama sutra adarabhya, chatushyashtitama sutra paryantam eva. So, if there was a pratyaya being given within this range, tada samasaha bhavati. Yat sutram asti alankhalvo hoiti ashtadasham sutram, tasmin eva pade. Ataha, tritiya prabhatishu nantar bhavati. It does not belong to tritiya prabhati. Tritiya prabhati refers to the sutras from 3447 to 3464. So, if the sutra is outside that range, there is tva pratyaya, kintu tva cha ityanena samasaha na bhavati. Alankritya is not correct in this particular case, as in this context. Alankritya iti rupamasti, that is a gati samasa. So remember, bhushanelam iti sutrena gati samya vidhiyate. Gati samyayam satyam gati samasa bhavati. Bhushanarthake alam shabde, bhushanarthakasya alam shabdasya gati samya bhavati, kri bhato hoyoge. So, tatra gati samasaha bhavati, alankritya, alankaram kritva ityatya, alankritya iti rupam sadhu. But it is not this case. Atra alam ityasya paryaptyartha kartum. Alam kritva, having said enough ityatya, atra asti, asmin arthe, alankritya iti rupam na bhavati ityatya. Any other questions? So next we are starting with some other accessory parts of Satpurusha Samasa, which is Samasanta. Satpurusha Samasa keke Samasanta Pratyaha Bhavanti. Satpurusha Samasa Lingan Nirnayaha Katham. Satpurusha Samasa Sankhya Nirnayaha Katham. Ityadayaha Vishayaha Arabhyante. So the actual Satpurusha Samasa, that is the Samasa Vidhayaka Sutras, end with this. So all starting from Dvitiya Satpurusha till Upapada Samasa, there are several types. But Sarvani Satpurusha Samya, Satpurusha Samasa, Vidhayakani Sutrani, Asmabhihi Drishtani. Yatasparam Samasantaha Arabhyante. Satpurushasya Angulehe Sankhyavyayadehe. It is Sutram. Satpurushasya Angulehe Sankhyavyayadehe. Iti Palachedaha. Samasantaha Ityadhikaraha. If you remember from Avihava Samasas, Samasanta Pratyayaha, there are a set of Sadhita Pratyayas, there is a subclass of Sadhita Pratyayas, which are added to the end of a Samasa. Samasasya Ante Ye Pratyayaha Bhavanti, Te Samasantaha, Te Sadhita Pratyayaha Api. Ataha Samasantaha Ityadhikaraha Asti, Ach Pratyanvava Purva Samanomnaha Ityataha, Ach Iti Anuvartate. So the particular Pratyaya being given in this Sutra is Ach. Ataha Sankhyavyayadehe Angulyantasya Tatpurushasya Samasantaha Ach Syat. So if there is a Tatpurusha Samasa, Angulyanta, which is ending with the word Anguli. Anguli iti shabdena, shabdaha ante asti yasmin Tatpurusha Samase. Tatha Sankhya Avyayadehe. And Purvapada is either a Sankhya or an Avyaya. Purvapadam tu Sankhyavachakam athava Avyayam. Uttarapadam Anguli iti shabdaha. Tatha sati Samasantaha Ach Pratyaha Samasasya Ante Bhavati. Dve Angulim, Dve Anguli Pramanam Asya Dvyangulam Daru. Sasti. Kaha Samasa Hatra. Can you identify the Samasa? Dvyangulam Daru. Daru is a wood which measures to, that is, the length is equal to that of two fingers. Ve anguli pramanam asya jasti. So if this is a bahuvrihi samasa, it cannot be a udaharana. We are talking only about Satpurusha. The sutra says Satpurushasya samasanta. So kim kat samasa hatra? द्विगुः कीदृशः द्विगुः विच् कैण्ड् द्विगुः इस् अ थ्री कैण्ड्स् तद्धिताख्ये द्विगु समासः सत्यं द्वे अङ्गुलीप्रमाणम् अस्य इत्यर्थे अस्मिन् अर्थे द्वि औ अङ्गुली औ द्विशब्दस्य अङ्गुलीशब्दस्य च तद्धिते विवक्षिते सीन् तद्धितार्थ द्विगु इस् वेन् तद्धितप्रत्यय विल् हेपन् इन् द फ्यूचर् सो आदौ समासः क्रियते सो द्वि औ अङ्गुली औ इत्यस्ति सो इदानीं तद्धितार्थोत्तरपदसमाहारे च इति सूत्रेण तद्धितार्थे द्विगु समासः क्रियते समासे कृते समासान्तः As soon as the samasa is done, we add the samasanta pratyaya, which is in this case ach. So, dvi au anguli au ante, samasasya ante, ach chitete chakaraha ittamyam prapnoti, kevalam akaraha shishyate, a iti bhavati, tattvashasya angule sankhyavyayadehe, sankhyadihi. So, the purvapada is a samkhyavachata and there is anguli shabda, so there is ach pratyaya. Au, which is supratyaya, si supodhata pratipitikayoho ityanena lopaha, dvi anguli a ityasti. Idani, तद्धित प्रत्ययः भवति प्रमाणे द्वयस्य सिद्धघ्नै मात्रजः इति सूत्रेण अत्र तद्धित प्रत्ययः देयर इज अ प्रत्यय कॉल्ड द्वयस्य व्हिच इज बीइंग एडेड इन प्रमाणार्थ प्रमाणे इत्यर्थे द्वे अंगुली प्रमाणम इज अ मेजर इन द सेंस ऑफ मेजर अ द्वयस्य इज अ सफिक्स व्हिच इज बीइंग एडेड एंड द सफिक्स इज डिलीटेड विगोर नित्यम इत्यनेन लोपः सो दैट इज व्हाई इन मोस्ट इन दिस काइंड ऑफ द्विगु समासः तद्धितार्थ द्विगौ न श्रूयते इन् मोस्ट् आफ् द केसेस् द तद्धित प्रत्यय इस् एडेड् एण्ड् डिलीटेड् सो बट् यु डू हियर् इन् सम् केसेस् षाण्मातुरः इत्यत्र अण् अन्ते अकारः श्रूयते सो बट् इन् मेनि केसेस् यु डोण्ट् हियर् सो अत्रापि द्विगो नित्यम् इत्यनेन लोपः सो यु स्टिल् हेव् द्वि अङ्गुलि अ इदानीं यस्येति च इत्यनेन अङ्गुलि इत्यत्र इकारस्य लोपः द्वि अङ्गुल् अ इत्यस्ति यणादेशे कृते द्व्यङ्गुल रूपम् दारु इत्यस्य विशेषणम् अतः द्व्यङ्गुलं दारु सो दिस् इस् द प्रक्रिया सो दिस् द सेम् कैण्ड् आफ् प्रक्रिया विल् बि देर् फोर् आल् समासस् इनिशियलि यु डू द समास देन् यु डू समासान्त एण्ड् एनी अदर् प्रक्रिया विच् अप्लैस् सो संख्यादेः अङ्गुल्यन्तस्य तत्पुरुषस्य अच् प्रत्ययान्तः सो वेर् एवर् अच् इस् एडेड् द समास बिकम् दकारान्त दट् इस् द इफेक्टिव् thing which happened. Nirgatam angulibhyah nirangulam. Pradisamasah. Niradayah kvantadhyarthe panchamya. Angulibhyah iti panchamyantena saha. Nir iti pradehe samasah. So this is pradisamasah. Now nir iti avyayam. So all pradis, they have nipata samya. And they have, because of it, which they become avyayas. So avyayadehe angulyantasya. निरङ्गुलि इत्यस्ति निरङ्गुली अ इति अच् प्रत्ययः ऐकारगस्ति चेत् यः निरङ्गुलम् नेक्स्ट् सूत्र अहस्सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः त्रीणि पदानि सन्ति अहः सर्व एकदेशसङ्ख्यातपुण्यात् रात्रेः समासान्ताः इत्यधिकारः अच् इति अनुवर्तते तत्पुरुषस्य इत्यपि अनुवर्तते सो इन् ए तत्पुरुषसमास देर् इस् रात्रिशब्द एट् द एण्ड् द उत्तरपद इस् रात्रि द पूर्वपद इस् वन् आफ् दीस् अहन् शब्द सर्व एकदेश एकदेश इस् अ पार्ट् भाग अवयववाचकः पूर्वं दृष्टम् एकदेशसमासे सङ्ख्यात इति पदं पुण्य इति पदम् एतानि पूर्वपदत्वेन सन्ति रात्रिपदम् उत्तरपदत्वेन अस्ति तथा सति यदि तत्पुरुषसमासः तर्हि अच् समासान्तः भवति एभ्यः नाम एतेभ्यः शब्देभ्यः परस्य रात्रेः रात्रिशब्दस्य अच् स्यात् चात् च इति उच्यते चकारात् सङ्ख्याव्ययादेः च एण्ड् दीस् इत्युक्ते द पूर्वसूत्रात् सङ्ख्या अव्यय इति अनुवर्तते अतः सो एनी आफ् दीस् और् अ संख्या और् एन् अव्यया केन् बि द पूर्वपदम् अत्र एकं वार्तिकमस्ति अहर्ग्रहणं द्वन्द्वार्थम् इति part is ahan shabda. Ahan means day, ratri is night. So etayoho tatpurusha samasah na sambhavati. So these two will not combine in a tatpurusha samasa. Ateva vatika karena uchyate dvandvartham. Dvandva samasah bhavati ahan shabdasya ratri shabdasya. Tathapi sutre ahan shabdah grihyate ityatah samarthyat achpratyah bhavati. Even though the combination of ahan and ratri is not a tatpurusha samasa, sutre dattam iti samarthya deva atra achpa samasa antah bhavati. Sahar grahanam dvandvartham iti vaktikam ahascha ratrischa. Day and night इत्यर्थे अहो रात्रि इत्यस्ति अच्प्रत्ययः रात्रि अ इकारस्य लोपे अहो रात्रः इति रूपम् अहो रात्रः इति पुल्लिंगे अस्ति रात्रि शब्दः स्त्रीलिंगे एक्चुअली दीस सूत्रस वी स्टडी लेटर हाउ डू वी डिटरमिन लिंग इन अ तत्पुरुष कंपाउंड द जनरल रूल इज परवलिंगं द्वंद्व तत्पुरुषयोः इन द्वंद्व एंड इन तत्पुरुष परवत लिंगम. The linga will always be the linga of the Uttarapada. Uttarapada se lingam, tadeva lingam. Okay. That happens because the Purusha is Uttarapada Prathana and all that. But there is a sutra, Paravalingam Dvandva Tatpurushayoho. But there are specific cases. There is a sutra called Ratranhaha Pumsi. Ratra Shabda, Anha and Aha. If these are at the end of the compound, then the compound will be in full linga. That is why even though the Uttarapada, which is Ratri, is in Strilinga, the compound word is in Pullinga. Aho Ratraha, iti Pullinge, Samastapadam. So, idam Ahan Shabdasya Udaharanam. So, when there is Ahan as the Purvapada and Ratri as the Uttarapada, we have Ach as the Samasanta. Anyani Udaharanani, Ahaha Sarva, Sarva Ratrihi. See? So, Purvakalaika Sarvajalas Purana Namakayala Samanadhi Karanena Iti Sutrena Sarva Ityasi Sarva Shabdaha Samanadhi Karanena Samasyate Ityasi Karmadhanaya Samasaha Sarva Ratrihi Sarva Ityasya Sarvanamno Vritti Matre Pumvadbhavaha Ityanena Pumvadbhave Sati Sarva Iti Bhavati Sarva Ratri A Ach Samasante Kate Isheti Chaitanena Ikarasya Lope Sarva Ratra Rupam पुनः तेन एव सूत्रेण रात्रन्हाः पुंसि इत्यनेन पुल्लिङ्गत्वे सर्वरात्रः अहस्सर्व एकदेश पूर्वं रात्रेः फर्स्ट् पार्ट् आफ् रात्रि इत्यर्थे पूर्वरात्रः पूर्वापरवाधरोत्तरम् इति सूत्रेण एकदेशसमासः पूर्वरात्र शब्दः पूर्वरात्रः सङ्ख्याता रात्रिः सङ्ख्यातशब्दः सङ्ख्यातशब्दस्य गणितम् इत्यर्थः दट् विच् इस् कौण्टेड् or estimated ityatah sankhyata ratraha, the day nights which have been counted, that is in anticipation of something ityate, that could be the context. So sankhyata ratraha iti rupam punya ratrihi punya ratraha ahaha sarva ekadesha sankhyata punyat. So in these two cases, sankhyata ratrihi punya ratrihi ityatra visheshana samasaha visheshanam visheshena phalam iti karmadharayaha. Sankhyata iti strilinge asti, punya iti strilinge asti, ubhayatra pumvadbhavah drishyate. Sankhyata punya ityatra. Pumvat karmadharaya jatiya deshiyeshu, which is sutrena, pumvadbhavah api asti. So, please treat all samasantas as a revision. So, whatever is the example given, which is the samasa vidhayaka sutra, what is the other prakriya involved, you should remember all that. Okay, this is all for revising the samasa vidhayaka sutras. So that is ahaha sarva ekadesha sankhyata punya. We still have two things which are coming from the previous sutra, sankhya and avyaya. Sankhyaya udaharanam dvayoho ratriyoho samaharaha dviratram samahara dviguhu tathitarthottarapada samahare chayati sutram. So you have dvi and ratri, dviratri iti sthite samasante dviratra iti. So in samasa, in samahara, Ratri Shabda will be Nahumsakalinga. So it becomes Dviratram. Atikrantaha Ratrim. Atyanaya Kranta Jathe Dikiyaya Ityanena Pradhi Samasaha. That which crosses the night, or which goes beyond the night, ityarthe Atiratraha iti rupam. So ahaha sarva ekadesha sankhyata punya sankhya avyaya. So these seven particles, if they are the Purvapada and Ratri is the Uttarapada, you should remember it gets Ach. So that is why it is also Navaratra, Navaratrotsavaha. It is even though in regional language we call it as Navaratri, the actual form is Navaratra, right, because of the Achamasa. Nava is a Sankhya. Sankhya Purvaha Asti Ataha Ach Pratyam Samasantaha Bhavati. So there are many examples of this. So, but if you have, say, Shiva Shabda, Shiva Ratrihi Ityasti, Tattatu Shiva Ratrihi Ityeva Bhavati. Yataha, Saha Shabdaha Atra Nasti. That word is not included in this list. So, in that case, it would be Shiva Ratrihi. The next Samasanta, Rajaha Sakhibhyashtate, a very popular or a very famous sutra. Raja Ahaha Sakhibhyaha. So three words. There is Rajan, Ahan and Sakhi. So for these three, if they are at the end of a Tatpurusha, this is Tach as a Samasanta. Okay, Purvatra Ach Ityasi, I am Tach. So there is a difference. If there is Takara as getting Itsamya, there is Prayojanam Bhavati. Asya, Sri Pratyaya Prayojanam Bhavati. Tidhana Iti Sutrena Ngi Pratyaya. Tit, wherever if the Pratyaya, if it becomes tipped, there would be some other purpose. Okay. So even though in Ach and Tach, the Rupe Bhedaha Na Drishyate. Whether you add Tach or whether what you add Ach, what you are effectively adding is only Akara. Ataha Tatha Rupe Bhedaha Na Bhavati. Kinto Anyani Karyani Bhityante. Tipra Prayuktani Kanishana Vishishta Karyani Bhavanti. Etadanta Tatpurushat Tach Syat. So, a Tatpurusha ending with these three, Raja, Aha and Sakhi, so it will have such as a Samasanta. So, Parama Rajaha, Paramaha Raja, San Mahat Paramottamottrishtaha, Pujyamanaihi, it is Karmadharaya Samasaha, Parama Rajan, it is Thite, Ante Tach Pratyaha Vidhiyate, you have Parama Rajan, A, Nastadhite, it is Sutrena, Nakarantam, Nakarantasya, Tadhita pare. As I said, samasantas are also tadhita pratyaya. Taha tadhita pratyaya pare, ti lopaha. Achontyadi ti. Ti is the name given to the last letter and last swara and whatever follows. Achaha antyadi. Antimaha ache. Starting with that, whatever is there. So either it will be, if the word is ajanta, it will be the last ach. If the word is halanta, it will be the last ach plus the hal. Dasyati samyabhavati nastadhite etyanena tehe lopaha. Paramarajan ityatra an iti ti samyakam. So anahalope paramaraj a ityasi paramarajaha iti rupam. That is why we say rajan becomes akaranta in a tatpurusha compound. It is a sayevartha. Tachiti samasantaha vidhiyate. Tena padam akarantam bhavati. Evam maharajaha mahan raja ityasi. Maharajaha. Atirajaha, Tirajanam, Atikrantaha, Ajate, Rajasamasaha, Atyadashkantanjate, Satrapi, Atirajan, Atisite, Nasadhire, Tikilope, Atirajaha. Krishna Pakaha, Krishnasya Sakha, so Sakshabdaha, Krishnasya. Sakha iti, Sakha iti asya pratipadikam asti, Sakhi, Ikarantam pratipadikam. So Krishna Sakhi iti, Shashti Tatpurusha Samasaha, Krishna Sakhi a iti asti, Yasya Dita iti nena Ikarasya Lope, Krishna Sakha iti Akarantam. Krishna Sakha Arjunaha, Krishna Sya Sakha Arjunaha, Samase Kutetu Krishna Sakha Arjunaha. Then you have Ahan, we saw Rajan and we saw Sakhi. There is also Ahan Shabda. Tatra Vishishtam Sutra Masti Anhash Takho Reva Iti. Sri Padani Anhaha Takhofu Eva. Etarayo Reva Parataha Anhaha Tilopahasyat Nanyatra Idam Niyama Sutram. Wherever you have Evakara in a sutra, it tends to be a Niyama Sutra. किं नियम्यते नलो टिलोपः नियम्यते नस्तद्धिते इत्यनेन किम् उक्तं नान्तस्य तेः लोपः स्यात् इति उक्तम् अहन् इत्यपि नान्तम् बट् द अहन् द टि आफ् अहन् विल् गेट् डिलीटेड् ओन्लि वेन् इट् इस् फालोड् बै ट अण्ड् ख ट नाम टच् प्रत्ययः अथवा ख प्रत्ययः एतयोः परतः एव अह्नः टिलोपः भवति इति नियमः उत्तमः उत्तमम् अहः पुनः कर्मधारयः सन्महत् परमोत्तमोत्कृष्टः उत्तमशब्दः अस्ति उत्तमम् अहः इति कर्मधारयः यः उत्तम अहन् टच् अ इत्यस्ति इदानीम् अन्हष्टखोरेव इत्यनेन अन् इत्यस्य लोपः उत्तमाः अ उत्तमाः व्यहीनः क्रतुः द्वे अहनी घृतः इत्यर्थे तथिताथे द्विगुसमासः यु हाव् ख प्रत्यय रात्र्यः समसाचेन ख सो इवन् वेन् देर् इस् ख द अहन् विल् गेट् डिलीटेड् यु हेड् द्वि अहन् अण्ड् यु हेव् ख सो इट् गेट्स् डिलीटेड् सो यु हेव् व्यहीन इति रूपं भवति सो देट् इस् जस्ट् एन् एक्साम्पल् फार् ख सो अहन् द टि आफ् अहन् विल् गेट् डिलीटेड् ओन्लि वेन् फालोड् बै टच् आर् वेन् फालोड् बै ख सो वि इन् दिस् केस् वि आर् कन्सर्न् वित् द टच् टच् प्रत्यय परे अह्नः तेः लोपः भवति अतः उत्तमाः इति अकारान्तम् सो राजाः सखिभ्यश्च तत् इति तत् स्मृतः लिङ्गविशिष्टपरिभाषायाः अनित्यत्वात् नेह परिभाषा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् Wherever there is a Pratiparika being told in the Sutra, Linga Vishishtasya. Atthata, Sri Pratyaya Sahitasya Api Grahanam Bhavati. So, yadi Rajan Shabdasya Kemepi Karyam Ucchyate, Tadhi Rajni Iti Shabdasya Api Bhavet Iti Ucchyate. Tathasati, Rajni Shabdasya Api Samasante Tat Pratyaya Syad Iti Prashna. So, if we consider Linga Vishishta Paribhasha, just like Rajan gets touch at the end of Savasa, राज्ञी इति स्त्रीप्रत्ययविशिष्टस्यापि भवेत् इति आक्षेपः सः उच्यते लिङ्गविशिष्टपरिभाषायाः अनित्यत्वात् दट् परिभाषा सेयिङ्ग् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इट् इस् अनित्य इट् इस् नाट् इट् डस् नाट् अप्लै एव्रिवेर् सो अत्र समासान्तविषये तस्य प्रवृत्तिः नास्ति अतः यदि राज्ञी शब्दः समासान्ते अस्ति मद्राणां राज्ञी इत्यस्ति तदा टच् प्रत्ययः न भवति सो द टच् प्रत्यय इस् ओन्ली फार् राजन् अण्ड् नाट् फार् राज्ञी मद्राणां राज्ञी मद्रराज्ञी इत्येव रूपम् नेक्स्ट् सूत्र अन्वोन्न एतेभ्यः कण्टिन्यूङ्ग् वित् अहम् त्रीणि पदानि सन्ति अह्नः अह्नः एतेभ्यः इत्यस्ति देर् आर् टु वर्ड्स् लैक् अह्नः द फस्ट् अह्नः इस् अहन् इति नकारान्तस्य षष्ठी सो फार् अहन् शब्द इत्यर्थः अग्रिमं यदस्ति अह्नः इति शब्दः अह्नः इति अकारान्तस्य प्रथमा विभक्तिः सो अह्नः केन् बि बोत् केसेस् इफ् इट् इस् अहन् नकारान्त षष्ठी विभक्तौ अह्नः इति रूपं भवति अकारान्तः इति शब्दः तर्हि प्रथमविभक्तौ अह्नः इति भवति सो हियर् द फस्ट् अह्नः इस् षष्ठी आफ् नकारान्त विच् मीन्स् फार् अहन् शब्द अह्नः इति द्वितीयं यदस्ति तत् प्रथमान्तम् आदेश अह्नः इति अकारान्तः आदेशः भवति इत्यस्ति अहन् शब्दस्य अह्नः आदेशः द वर्ड् अहन् इस् रिप्लेस् बै अह्नः एतेभ्यः इति किम् इति प्रश्नः द प्रीवियस् सूत्र इफ् यु नोटिस् द सूत्र नम्बर्स् 5487 was Ahasarvaikadesha Sankhyata Punyat and before that was Sankhyavyayadeh. So, Etebhyaha Ityanena, Te Sikriyante. Ahan is not there because Ahan cannot be a Purvapada for Ahan. Sarva Ekadesha Sankhyata Punya and Sankhya Avyaya. So, when these are the Purvapada, Etebhyaha Parasya, Ahan Shabdasya, Samasante Pare, Anha iti Adeshaha Bhavati. राजा हस्तक्षिप्यश्च टच् इत्यनेन समासान्तः टच् प्रत्ययः भवति आल्सो द अहन् इस् रीप्लेस्ड् बै अह्नः फार् एक्साम्पल् सर्वम् अहः इत्यस्ति आल् डेस् इत्यर्थे पूर्वकालैकसर्व इत्यादिना कर्मधारयसमासः सर्व अहन् इत्यस्ति कर्मशब्दस्य अहन् शब्देन समासः सुप् प्रत्ययस्य सुपोधातु प्रातिपदिकयोः इति लोपः सो यु हेव् सर्व अहन् राजाः सखिभ्यः टच् इति समासान्तः टच् सो यु हेव् सर्व अहन् अ इदानीं समासान्ते परे वेन् फालोड् बै समासान्त इफ् पूर्वपद इस् सर्व देन् अहन् इस् रीप्लेस् बै अह्न अह्नोन्न एतेभ्यः इत्यनेन अहन् इत्यस्य स्थाने अह्न इति आदेशः सर्व अह्न अ इत्यस्ति यस्येति च इत्यनेन अह्न इत्यत्र अकारस्य लोपे सर्व अह्न अ सर्वाह्न इत्यस्ति पुनः सूत्रमस्ति अह्नोदन्तात् इति त्रीणि पदानि अह्नः अदन्तात् इति दशाभ्यां क्षम्यताम् द्वे पदे अह्नः अदन्तात् इति दशाभ्यां नोणसमानपदे इत्यतः नो णः नकारस्य स्थाने णकारादेशः णत्वविधायकम् इदं सूत्रम् पूर्वपदात् संज्ञायाम् अगः इत्यतः पूर्वपदाद् इति अनुवर्तते अदन्तपूर्वपदस्थात् रेफात् परस्य अह्नादेशस्य णस्य णः स्यात् अदन्तात् परस्य अह्नः सो इफ् देर् इस् अन् अह्नादेश पूर्वपद इस् अदन्त विच् इस् ह्रस्व अकारान्त द पूर्वपद इस् ह्रस्व अकारान्त एण्ड् देर् इस् अह्नः If there is a repha in the Purvapada, Purvapada edi. So the nimitta for natva is always either repha or shakara. So in this case this is repha. So if there is a repha in the Purvapada and there is anha, if the Purvapada is akaranta, hrasva akaranta, there is natva. So it is why it becomes sarvanha edi nakaraha shruyate. So I hope the prakriya is clear. Sarvam ahaha ityasti. So sarva सु अहन् सु इति स्थिते पूर्वकालैक सर्व इत्यनेन कर्मधारे समासः ततः राजाः सखिभ्यश्च टच् इत्यनेन टच् प्रत्ययः समासान्तः सर्वासु अहन् सु अ इत्यस्ति सुबोधातु प्रातिपदिकयोः इत्यनेन सुलोपः सो सर्व अहन् अ इदानीम् अहन् शब्दस्य अह्नादेशः अह्नोन्न एतेभ्यः सो सर्व अह्न अ ततः यस्येति च इत्यनेन अह्न इत्यत्र अकारस्य लोपः सो यु हाव् सर्व अह्न अ अकसवर्णे दीर्घः इत्यनेन सवर्णदीर्घे सर्वाह्न अह्नोदन्तात् इत्यनेन णत्वे सर्वाह्न ततः प्रातिपदिकत्वात् सुपोधातु प्रातिपदिकयोः इत्यनेन सुप्रत्ययः सुप्रत्ययस्य ऋत्वविसर्गौ सर्वाह्नः इति रूपम् पुनः अत्रापि रातान्हाः पुंसि इत्यनेन पुल्लिङ्गत्वम् अस्ति अहन् शब्दः नपुंसकलिङ्गे वस्तुतः किन्तु रात्र अह्न अहाः पुंसि इति उक्तत्वात् पुल्लिङ्गत्वं सर्वाह्नः यु केन् सी जस्ट् फार् सर्वाह्नः सो मेनि सूत्रास् इन्वाल्ड् सो मच् आफ् प्रक्रिया सो वेन् यु आर् रियली गुड् एट् समास यु शुड् बि एबल् टु गिव् द प्रक्रिया लैक् दिस् यु शुड् बि यु शुड् सी द प्रक्रिया इन् फ्रण्ट् आफ् यू सो देर् आर् सो मेनि एङ्गल्स् पूर्वपदे कार्यं भवति उत्तरपदे कार्यं भवति समासान्तः भवति सन्धिः भवति लिङ्गविधायकानि सूत्राणि ज्ञातव्यानि समासविधायकं सूत्रं ज्ञातव्यम् सो समास इस् नाट् जस्ट् वन् सूत्र सर्वाह्नः कः समासः कर्मधारयः फैन् बट् सो मच् इन्वाल्ड् बिहैण्ड् एवं पूर्वाह्नः पूर्वम् अह्नः इति स्थिते सो अत्रापि पूर्व इति अदन्तमस्ति अह्नः इत्यत्र णत्वं भवति सो पूर्व इति एकदेशवाचकम् अहः सर्व एकदेशवाचकस्य अह्नादेशः सो देर् इस् टच् देर् इस् आल्सो अह्न आदेश सङ्ख्याताह्नः सङ्ख्यातशब्दः यदि पूर्वपदं तदापि अह्नादेशः भवति द्वयोरह्नोर्भवः इति तद्धिताख्ये द्विगुसमासः द्विगुसमासे कृते कालाठञ् इत्यनेन ठञ् प्रत्ययः भवति तस्य लोपः भवति सो यु हाव् द्वि अहन् टच् भवति द्वि अहन् अहन् इत्यस्य अह्न इति आदेशः सङ्ख्यापूर्वत्वात् सिन्स् द्वि इस् अ सङ्ख्यावाचक देर् इस् अह्नादेश द रूप विल् बि द्व्यह्न इफ् यु रिमेम्बर् द्व्यह्न एण्ड् द्व्यः वि हव् आलरेडी स्टडीड् अर्लियर् वन् ओके स्त्रियाम् अदन्तत्वात् टाप् द्व्यह्ना Feeling of form is Vyanha. Vyanha. there no, it should have been given here. Oh, just a second. So why does he mention it specifically is the question, because as I said, touch, whenever there is touch, samasanta, touch is tikta, okay, there is takara as the itsamya. So generally if there is a touch samasanta, there will be neep pratyaya, tiddhana ityanena, neep iti pratyaya bhavitum arhati. Kintu atra, neep na bhavati, tameva bhavati iti darshayati. Neep will not apply because this is an upasarjana, okay. So, dvayohu anhohu bhavaha, that which occurs in 2 days, ityasaha. Atra ahan shabdasya pradhanyam nasti. Ahan is an upasarjana. So, since the tit is upasarjana, there is no neep. So, that is why he says there is a tap pratyaya. So, don't worry about that. That is not concerned really with the samasa. It belongs to 3 pratyayas. So, since you don't have it, it is okay. You don't need to worry too much about that vyanham. So next, Vyanha Priyaha, Dve Ahani Priye Esya Saha, Iti Vigugarbhaha Bahuvrihi. So this is, the entire thing is Bahuvrihi, but within that, Dvi Anha, Uttarapade Pare Vigusamasaha. So Tatrapi Dvi Ahan Iti Sthite, Ahan Ityasya Anha Deshe, you have Vyanha Priyaha. Okay. So the same thing which we saw earlier, we saw Dvyanha Jataha and Vyaha Jataha. Okay. So that is the reason. So again, Atyanha, this is Sankhya Purva and this is Avyaya Purva. So Ati is an Avyaya, Aha Ati Krantaha, that which crosses the day ityarthe, Pradi Samasaha, Atrapi Anhadeshaha Bhavati. So showing that in all the Etebhyaha Ityukte, Sarva Ekadesha Sankhyata Punya Sankhya Avyaya. So whenever these are the Purva Pada, Ahan is replaced by Anha. For touch, there is no condition. Touch Pratyayastu Sarvatra Bhavati. Tatpurusha samase sarvatra tas pratyaha bhavati. Kintu purapadam eteshu yadi antar bhavati, tarhi ahan nityasya anhadeshaha api bhavati. Shubhadishu cha. Atyasti. Nabhabhupu kami kami pyayi vepa michi sutrena na iti nuvatkate. Nattvam na bhavati. Kyuktam anho dantat. If the purapada is adanta and there is anha shabda, it gets anatva, iti purvatra uktam, shubdha dishu cha, eshu natvam nasya, this is anatva nishedha. For words which have been told under the shubnadi gana, so for words which are belonging to that class, natvam nabhavati, ityasaha, dirghanhi pravrit. Sarvanha ityatra, natvam shuvyate, dirghanha ityatra tu, Pratvam nasti, because the word dirghanha has been given in the Shubhadi Gana. Dirghani ahani esyasa ityanena bahuvrihi samasaha. So since this is bahuvrihi, you have dirgha ahan. There is no touch. Tat purushe eva touch pratyaha. Tratu touch samasantaha nasti. It is just dirgha ahan. Anavadhalopinonatrasyamti sutrena neep pratyaha. For the stri pratyaha, e is added. Dirghahan e ityasti. Dirghahan e ityasthite alloponaha ityanena upadhayaha akarasya lopaha. Dirghahan iti, the upadha is the penultimate letter. Upadhayam yaha akaraha tasya lopaha. So it becomes dirghanh e dirghanhi iti rupam. Idanim anhodantat, adantat purvapadat parasya ahan ityasya natvam ityanena natvam prapyate. Anena, Shubhadi Shucha, iti gane, Shubhadi gane, dirghani shabdasya patitatvate, atranatvam nabhavati, iti uktam. Dirghani ityatranatvam nasti, sarvanaha purvanaha ityatranatvam shruyate. Is this much clear? Because there is some more vichara which is based on this. Any questions? Did you understand Dirghani? Dirgha Ahan. There is no Anhadesha. There is no touch. Touch samasantaha na bhavati. Dirgha is not included in those. You do not have Dirgha in that list. Sarva ekadesha sankhyata punya sankhya avyaya. It is none of those. Ataha Anhadesha api nasti. Touch api nasti, Anhadesha api nasti, Atto api nasti. There is nothing in it. Clear with the prakriya of Dirghani. Now there is some vichara which is done here. Anho dantat iti sutramasti. Kila, we saw anha dantat. Adantat puropadat parasya anha raptam bhavati ityarthaha. Now, anha, as we saw, can be of two kinds. Ahan iti nakarantasya shashtyantaha api bhavitam arhati. Anha ityasya prathamantaha api bhavitam arhati. It can either be the shashti of ahan or the prathama of anha. Dikshitaihi sutrasah katham lishitah. If you go back to the slide and see, I will tell you now, but you can refer later. He says, adantat purvapadat parasya anha deshasya anaktvam bhavati. He has treated it as prathama of anha. Anha iti akarantam. Adantasya shashtyarte prathama. It should have actually been anhasya anaktvam iti bhave. Prathama vibhakti asti, kintu tatra anha iti adantam akarantam. So therefore, yatra han shabdasya anhadeshaha kritaha tatraiva natvam bhavati iti dikshitanam sutrartha drishtya bhavati. If you look at the sutrartha, that is what is the interpretation of dikshitar. He says, wherever anha has been, ahan has been replaced by anha, anha iti akarantaha adeshaha yatra kritaha tatraiva natvam praptavati. So anha iti adantasya prathamantam iti dikshitanam matam tathasati yatra anhadeshaha kritaha tatraiva natvam. Wherever there is anha as the adesha, there can be natva. So if we take this interpretation, dirghani kimartham esha prayatnaha, why did dikshitar treat this as akaranta, is dirghani ityatra natvam na bhavet. So to prevent natva in dirghani, dirghani ityatra anhadeshaha nasti. As I told, there is neither touch nor anhadesha. So it is only dirghahan. Atra anhadesha nasti, atra natvam neshyate, natva nivaranartham. To prevent natva in dirghani, dikshitar interprets anhodantat as anhadesha. Atra anhadesha kritaha, tatra eva natvam iti uchyate, dirghahan ityatra anhadesha nasti, ataha natva api nasti iti matam. But this is not required. Such interpretation, that is interpreting anha as akaranta to prevent natva in dirghani is not required. Kimartham shubhnadigane pathadeva natvam vadete. Since dirghani is already given in shubhnadigana, shubhnadishucha ityanenaiva natvam vadyate. Evancha etadartham, that is to prevent natva in dirghani, anha iti adantanukarana kleshaha na kartavyaha. So you can see the natural interpretation of anha is shashtyanta. Anha ahan shabdasya natvam bhavati ityukte, anha iti ahan shabdasya shashti ityeva sahajaha artha. The natural meaning which you would get from anha adanta is for ahan shabda. Okay, that would be the natural interpretation. To interpret it as anha is, it can be done in some cases, but it is a klesha, adanta anukarana. You have to say that anha iti akarantasya anukaranam shashtyarthe prathama vibhaktihi ityapi vaktavyam. Because there should actually have been shashti for adesha. When you are saying an adesha, anha shabdasya ahan adeshamitam ratvam bhavati ityate shashti vibhaktihi apekshate. Okay. Prathama vibhaktihi asti. If you are saying anha is akaranta, then this is prathama. You have to say shashtyarthe prathama vibhaktihi iti vyakshane kleshaha asti. Saha kleshaha kimartham kritaha dikshitaihi dirghani ityatra natvamaranartham tadrashaha kleshaha kritaha. Kintu shubhnadigane pathadeva natvam vadyate ityataha anhaha iti adantanukarana kleshaha. Anhodantad ityatra anhaha iti akarantasya anukaranam iti vaktavyam nasti. That is not required. You can take a simpler explanation. The simpler interpretation for anhodantat as adantat purvapadat parasya ahan shabdasya अनत्वं भवति इत्येव वक्तव्यम्। दीर्घाम्नि इत्यत्र तु शुभ्रादिषु च इत्यनेन नत्वं वार्यते। सो प्रातिपदिकान्त इति नत्ववारणाय क्षुभ्नादिषु पाठस्य आवश्यकत्वात्। दीर्घाम्नि हेस् टु बि इन्क्लूडेड् इन् शुभ्नादिगण फार् अदर् पर्पसस् आल्सो टु प्रिवेण्ट् आल् कैण्ड्स् आफ् नत्व, नाट् ओन्ली टु प्रिवेण्ट् नत्व बै अन्होदन्त बट् आल्सो टु प्रिवेण्ट् नत्व बै अदर् सूत्रस्, द वर्ड् हेस् टु बि इन्क्लूडेड् इन् शुभ्नादिगण। सो वेन् द वर्ड् हेस् बिन् इन्क्लूडेड् शुभ्नादिषु च इत्यनेन नत्ववारणं भवति। अह्नोदन्तात् इत्यत्र अह्नादेशस्य णत्वम् इति वक्तव्यं नास्ति, अहन् इत्यस्यैव णत्वम् इति दीक्षितैरेव उच्यते। सो यु केन् सी दट् इनिशियलि दीक्षितर् गेव् द सूत्रार्थ अह्नादेशस्य णत्वम्। सो दट् इस् बेस्ड् आन् सम् अदर् ग्रमेरियन्, सो पूर्वकाले तथा दत्तम् इत्यतः तथा कृतम्। बट् ही हिम्सेल्फ सेज् लेटर् अह्नादेशस्य णत्वम् इति वक्तव्यं नास्ति, अहन् शब्दस्य णत्वम्। सो जस्ट् प्लेन् अहन् विल् गेट् णत्व इफ् द पूर्वपद इस् अकारान्त। एण्ड् इन् केस् आफ् दीर्घानि णत्ववारण इस् बै शुभ्नादिषु च। क्लियर्? अदन्तात् इति सपरकरणात्, अह्नोदन्तात् इत्युक्ते किमुच्यते, अदन्तात् पूर्वपदात् परस्य, ह्रस्वकार पूर्वपदं ह्रस्वकारान्तं भवेत् तस्मात् परस्य अहन् शब्दस्य किं णत्वं भवति। अतः परागतम् अहः इत्यस्ति, परा इति अव्ययं, परा इत्यस्ति, परा इत्यस्य अहन् शब्देन समासः प्रादिसमासः, अतः टच् समासान्तः भवति। अव्यय परा इति अव्ययम्, अतः अह्नादेशः अपि भवति। इदानीं परान्नः इत्यत्र रेफा अस्ति, देर् इस् रेफा, बट् स्टिल् दिस् इस् नाट् अदन्त, ह्रस्वकारान्तत्वं नास्ति, दीर्घ आकारान्तः शब्दः, अतः अत्र णत्वं न भवति। इस् अ पूर्वपद एण्ड्स् इन् अ दीर्घ अकार, देर् इस् नो णत्व, ओन्ली इफ् इट् इस् अ ह्रस्वकार वि हाव् णत्व, इट् बिकम्स् पूर्वाह्नः, परान्नः इत्यत्र तु णत्वं न भवति। अग्रिमं सूत्रमस्ति, न सङ्ख्यादेः समाहारे, समाहारे वर्तमानस्य सङ्ख्यादेः अह्नादेशः न स्यात्। सो इफ् इट् इस् अ समाहार द्विगु एण्ड् द पूर्वपद इस् अ संख्या, देर् इस् नो अह्नादेश, अहन् इस् नाट् रिप्लेस्ड् बै अह्न। सङ्ख्यादेः इति स्पष्टार्थम्, दीक्षितर् सेस् व्हेनेवर् ही सेस् स्पष्टार्थम्, इट् इस् ओन्ली टु इन्क्रीस् क्लारिटी, मीन्स् द वर्ड् सङ्ख्यादेः इस् नाट् एक्चुअली नीडेड्। किमर्थं समाहारः, वेन् यु आर् सेयिङ्ग् समाहार द्विगो, द्विगो इस् आल्वेस्, ऐ मीन् वेन् यु आर् सेयिङ्ग् समाहार तत्पुरुष, आल् दिस् इस् इन् असोसियेशन् वित् तत्पुरुष, इन् तत्पुरुष इफ् देर् इस् अ समाहार, इट् इस् समाहार द्विगु। समाहार द्विगु इस् आल्वेस् वित् सङ्ख्या, सङ्ख्या इट् सेल्फ् इस् अ पूर्वपद, सर्वत्र समाहारे तत्पुरुषे यदि समाहारः तर्हि संख्यावाचकमेव पूर्वपदं भवति। यदि द्वन्द्वे समाहारः तर्हि अन्यत् किमपि भवितुमर्हति। समाहार इस् टु कैण्ड्, समाहार द्वन्द्व एण्ड् समाहार द्विगु। इफ् इट् इस् अ समाहार द्वन्द्व, इट् केन् बि सम् अदर् वर्ड्, बट् इफ् इट् इस् अ समाहार द्विगु, द्विगु इट् सेल्फ् इस् संख्यापूर्वः, द्विगुः इत्युक्ते संख्या एव पूर्वपदं भवति, तर्हि संख्यादेः इति किमर्थं वक्तव्यं नास्ति। सो ही डीड् नाट् से संख्यादेः, न समाहारे इत्युक्ते एव तत्पुरुषे यदि समाहारः तर्हि संख्यावाचकमेव भवति, इट् हेस् टु बि संख्यावाचक, सो देर्फोर् संख्यादेः इति वक्तव्यं नास्ति, इट् नीड् नाट् बि टोल्ड्, संख्यादेः इति स्पष्टार्थम्, जस्ट् फार् क्लारिटि। सो इफ् इट् इस् अ समाहार द्विगु, देर् इस् नो अह्नादेश, द्वयोः अह्नोः समाहारः, दिस् इस् नाट् भवः, शुड् बि समाहारः, द्वयोः अह्नोः समाहारः, टैपिङ्ग् एरर्, ऐ मेड् दिस् एरर्, सो दिस् इस् द्वयोः अह्नोः समाहारः इत्यर्थे अह्नादेशः न भवति, द्व्यहः, द्वि अहन् इत्यस्ति, टच् भवति, द्वि अहन् अ इत्युच्यते, नस्तधिते इत्यनेन लोपे द्वि अह अनादेशे कृते द्व्यहः, देहः इति रूपम्। समाहारः यदि अस्ति तर्हि अह्नादेशः नास्ति। यदि तद्धितार्थे द्विगुः द्वयोः अह्नोः भवः इति तद्धितार्थे यदि द्विगुः तर्हि द्व्यह्नः। सो बोथ फॉर्म्स आर देयर। द्व्यह्नः इज तद्धितार्थ द्विगु, द्व्यः इज समाहार द्विगु। सो दिस माइट बी अ क्वेश्चन, आई मीन I don't know what kind of question they given MA, but this is from the cases where what is the difference if they ask. So samaharaha yadi bhavati tarhi anhadeshaha nasti dvyahaha iti rupam. Yadi tadhitathya viguhu tarhi anhadeshaha bhavati dvyanhaha iti rupam. Grimam sutram uttamaika abhyam cha. Abhyam anhadeshaha na. पुनः न संख्यादे समाहारे इत्यतः न इति अनुवर्तते। उत्तमैकाभ्याम् अह्नादेशः न भवति। सो इफ उत्तम इज द पूर्वपद और इफ एक इज द पूर्वपद देयर इज नो अह्नादेश। अह्नादेशः कस्य भवति? सो बिफोर अंडरस्टैंडिंग निषेध यू शुड नो व्हाट इज द प्राप्ति। कथम प्राप्तिः? प्राप्तौ सत्यमेव निषेधः। इफ देयर इज प्राप्ति बाय सम सूत्र देयर इज निषेध। फॉर एग्जांपल इफ देयर इज एक किम् अह्नोन्न एतेभ्यः इत्यनेन कदा अह्नादेशः कदा भवति? वेन् इस् अह्नादेशः हेपनिङ्ग्? इफ् वन् आफ् दीस् इफ् देर् इस् सर्व एकदेश संख्यात पुण्य संख्या अव्यय इफ् वन् आफ् दीस् सिक्स् इस् द पूर्वपद तदैव अह्नादेशः भवति। एक इति संख्यावाचकम्। संख्यावाचकं पूर्वपदं यदि अस्ति तर्हि अह्नादेशः प्राप्नोति। प्राप्तौ सत्यम् एकशब्दात् निषेधः भवति। So there is the word uttama. Uttama shabdaha yadi purvapadam, tarhi anhadeshasya praptireva nasti. There is no anhadesha because uttama is not included in this. Sarva ekadesha sankhyata punya sankhya avya ityeteshu uttama shabdaha nasti. Ataha anhadeshasya praptireva nasti kimartham nishedhaha. He said uttama shabdaha antyarthaha. Here uttama does not refer to the word uttama. इट् रेफर् अन्त्यार्थः। उत्तम इत्यस्य अत्र अन्त्यम् इति अर्थः, अन्तिमः शब्दः। सो इन् दट् लिस्ट् यु हाव् संख्याव्ययादेः संख्या अव्यय सर्व एकदेश संख्यात अण्ड् पुण्य इन् अमङ्ग् दीस् विच् इस् द लास्ट् वन्। अन्तिमः इत्यर्थः अर्थात् पुण्यशब्दस्य पुण्यशब्दः यदि पूर्वपदं तर्हि अह्नादेशः न भवति इत्यर्थः। इस् इस् अ वेरि ट्विस्टेड् इण्टर्प्रिटेशन्। बट् उत्तम शब्दः अन्त्यार्थः। सिन्स् उत्तम शब्दः यदि पूर्वपदं तर्हि अह्नादेशस्य प्राप्तिरेव नास्ति, अतः निषेधस्यापि अर्थः नास्ति। वेन् देयर् इस् नो प्राप्ति वै निषेध। अतः किमुच्यते? उत्तम शब्दस्य अन्तिमः इत्यर्थः अस्ति अस्मिन् किम् अस्यां परिगणनायां। यत् कुत्र कुत्र अह्नादेशः भवति इत्युक्ते संख्यादेः अव्ययादेः सर्व एकदेश पुण्य सर्व एकदेश संख्यात पुण्य इत्येतेभ्यः इति उच्यते। तत्र अन्तिमः यः अस्ति सः पुण्यशब्दः। अतः पुण्यशब्दात् परस्य अहं शब्दस्य अह्नादेशः न भवति इत्यर्थः। सो पुण्यैकाभ्याम् इत्येव सूत्रयितुम् उचितम्। सो दिस् इस् सेड् वेरि क्लियर्ली। पाणिनि शुड् नाट् हाव् सेड् उत्तमैकाभ्यां च बिकास् इट् रिक्वैर्स् सच् सो मच् आफ् ट्विस्टेड् इण्टर्प्रिटेशन्। ही शुड् हाव् सिम्प्ली टोल्ड् पुण्यैकाभ्याम् for punya shabda and for eka shabda. That would have been very simple and correct. Iti dikshitanam abhiprayaha. Punyaikabhyam ityeva sutraitum uchitam. Punya aham. Ataeva punyam ahaha. Ityasti punya ahan tats samasantaha. Tatra anha deshaha nabhavati. Punya anhaha iti nabhavati. Yatha sarvanhaha iti abhavati. Tatha punya anhaha iti nabhavati. Punya aha ityeva. अहन् अ इत्यस्ति नस्तद्विते चिटिलोपे पुण्याः। एवं सुदिनाहम् इत्यस्ति सुदिनम् अहः। सुदिनशब्दः प्रशस्तवाचि। सुदिनं नाम उत्तमम् इत्यर्थे एव। प्रशस्तवाचकम् अस्ति। सो किं तत् I forgot the samasa vidhayaka sutra for prashastavachaka. प्रशंसावचनैश्च इति सूत्रेण भवति अथवा सुदिनम् एनिवे सुदिन इस् प्रशस्तवाचक मीन्स् उत्तमः प्रशस्तम् अहः इत्यर्थे सुदिनाः शब्दः सो अत्र उभयत्र पुण्यसुजनाभ्यां च इत्यनेन क्लीबत्वं सो यू केन् सी दट् द प्रीवियस् केस् आल्वेस् रात्राह्नः पुंसि इत्यनेन पुल्लिङ्गत्वम् आसीत् युसौ पूर्वाह्नः सर्वाह्नः बट् इन् दीस् टु केसस् वी विल् सी लेटर् द लिङ्ग निर्णय इस् गिवन् लेटर् सो देर् इस् नपुंसकलिङ्ग सो इट् बिकम्स् पुण्याहम् अण्ड् सुदिनाहम् So, if Punya is the Purvapada, there is no Anhadesha. If Sudina is the Purvapada, there is no Anhadesha at all. Prapti Revan Asti, Sudina Ityasya Iti Eta Diri Purvapadam, Tarhi Prapti Revan Asti, Punya Shabdasya Anena Nishidhyate, Punya Shabdaha Iti Purvapadam, Tarhi Anhadesha Hanabhavati. Evam Eka Shabdaha Iti Purvapadam, Ekam Ahaha Ityatheti, Ekanhaha Iti Nabhavati, Ekahaha, Ekahan A. Some people say Punyekabhyam, Panini should have told Punyekabhyam, but still he is giving Uttamaikabhyam. Tena Uttamagrahanam Upantyasyapi Sangrahartham. So it refers to not only Punya Shabda, the last two. It refers to not just the last word which is Punya, but the last two which is Sudina, Sankhyata and Punya. Sarva Ekadesha Sankhyata Punya. The last word is Punya and the penultimate is Sankhyata. Ataha Sankhyata Shabdaha Yadi Purvapadam Tadapi Anhadeshaha Nabhavati Iti Eke. So some people say that Tada Kim Bhavati Sankhyataha Iti Rupam Syat. But according to Dikshitar, it is Sankhyatanhaha. He has already given the example earlier. So it will be Sankhyatanhaha Itiyeva Rupam. Keshanchana Mate संख्यातशब्दे पूर्वपदे अपि अहन् शब्दस्य अह्नादेशः न भवति संख्याताः इति सो वी विल स्टॉप हियर फॉर टुडे वी विल कंटिन्यू विथ समासान्तः टुमारो पुनः समासान्तः अन्येषामपि शब्दानां समासान्ताः उच्यन्ते एनी क्वेश्चन्स् येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्रिम व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वस्तुकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदस्ति परिभाव्य च वैयाकरणसिद्धान्तकौमुदीहं विरच्यते Okay, we'll continue with this tomorrow.